विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं वर्धनं विद्याभोगकरी यशस्सुखकरी विद्यागुरूणां गुरुः विद्याबन्धुजनो विदेशगमने विद्यापरा देवता विद्याराजसुपूज्यते न तु धनं विद्याविहीनः पशुः। नमस्कारः महोदय।
नमस्कारः भगिनी, धन्यवादः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। गतवर्गे वयं तत्र एकां कथां पठितवन्तः। तस्मात् प्राक् तत्र सप्तसु विभक्तिषु तत्र अभ्यासः, हलन्तशब्दानाम् अभ्यासरूपेण एकः पाठः आसीत्, तं पाठमपि पठितवन्तः। इदानीम् अग्रे सरामः। तत्र विशेषणविशेष्यभावः इति विषयः, विशेषणविशेष्यभावः एतत्तु जानीमः, पूर्वमपि दृष्टवन्तः। तत्र विशेषणविशेष्यभावः, तत्र विशेषणं पदमस्ति, विशेष्यं पदमस्ति। तत्र उदाहरणानि एकवारं पश्यामः। तत्र वेदा भगिनी, विशेषणं विशेष्यं तत्र पदद्वयं वदति वा? अपि किं विशेषणं किं विशेष्यम् इति वदति वा?
हा महोदय, नीलकण्ठः, नीलः कण्ठः, तत्र कण्ठस्य विशेषणमस्ति नीलः।
अस्तु, अतः तत्र प्रश्नः अस्ति, कण्ठः अस्ति, कीदृशः कण्ठः इत्युक्ते किं वदामः?
कीदृशकण्ठः इत्युक्ते नीलः कण्ठः इति
नीलकण्ठः इति वदामः। समीचीनं भगिनि। अतः नीलः इति पदं किं भवति, तत् किमपि किञ्चित् सूचयति कण्ठस्य विषये, किञ्चित् अस्तु कीदृशः कण्ठः इति वदति। अतः तत्र नीलः इति विशेषणं, कण्ठः इति विशेष्यं। समीचीनम्, अस्तु विशेषं, समीचीनं भगिनि। अस्तु, उषा भगिनि।
आं महोदय, वदामि। उन्नतः वृक्षः, वृक्षः विशेष्यम्, उन्नतः विशेषणम्।
अपि तत्र प्रश्नः किं कः भवति, तत्र कीदृशः वृक्षः
महोदय,
कीदृशवृक्षः खलु?
कीदृशवृक्षः।
उत्तरं किं भवति?
उन्नतः वृक्षः।
उन्नतः वृक्षः अति, अतः तत्र किम् अस्ति, तत्र अनेकाः वृक्षाः सन्ति, किन्तु अस्मिन् वृक्षे किमपि विशिष्टं, विशिष्टं किमपि, एषः वृक्षः विशिष्टः, किमपि तस्मिन् किमपि नूतनम् अस्ति, अथवा किमपि अस्ति तत् सर्वेषु वृक्षेषु सर्वदा न भवति।
नारिकेलवृक्षः उन्नतः अस्ति महोदय।
सत्यं भगिनि, किन्तु यदि उन्नतः वृक्षः इति वदामः, तत्र केवलं तत् नारिकेलवृक्षः इति वदामश्चेत् तत् अपि विशेषणं विशेषभावम् अत्रापि खलु? किन्तु उन्नतः वृक्षः, तत्र उन्नतः इति पदं वृक्षस्य विषये किमपि वदति। अस्तु, समीचीनम्। अस्तु, शोभा भगिनि, तत्र विशेषणविशेषभावस्य उदाहरणं
महोदय, कृपया पृष्ठसङ्ख्यां।
न, इदानीं पृष्ठसङ्ख्या अस्ति तत्र सप्तत्रिंशत्, 37। किन्तु इदानीं तत्र पाठस्य आरम्भं न कृतवन्तः, केवलं तत्र विशेषणं विशेष्यं पदद्वयम् उदाहरणार्थम्।
ओ, किन्तु कथायाम् एव किल महोदय?
न, भवत्याः उदाहरणं किमपि, केवलं पदद्वयम्, एकं विशेष्यम् एकं विशेषणं, तावदेव।
अस्तु, तत्र शीतकरं सायङ्कालम् अधुना।
अस्तु, शीतकरं सायङ्कालम्, अस्तु, अथवा शीतमयं सायङ्कालं पर, तदपि प्रायशः समीचीनमेव। तत्र विशेष्यं किं विशेषणं किं?
हा तत्र सायङ्कालम् इति विशेष्यं तत् तस्य विशेषणं कीदृशं सायङ्कालम् इत्युक्ते शीतमयम् अथवा शीतकरम् सायङ्कालं
सायङ्कालम् अस्तु
अन्यत् उदाहरणं
तावदेव समीचीनं भगिनि प्रायश तत्र सायङ्कालः इति अस्ति इति मन्ये किन्तु चिन्ता मास्तु तत्र विशेषणं विशेष्यं
तत्र अस्तु महोदय सायङ्कालः तत्र कर्म द्वितीय सायङ्कालम् इति
कालः सायङ्कालः इति एव अस्ति
कालः इति एव
पुल्लिङ्गपदम् अस्ति अतः
तत्र समस्तपदं भवति किल महोदय किमपि परिवर्तनं
न भवति
ओ अस्तु अस्तु महोदय
अस्तु चिन्ता मास्तु भगिनि अस्तु नरेश महोदय
प्रसन्नः शिशुः
प्रसन्नः शिशुः
कीदृशः शिशुः प्रसन्नः शिशुः
समीचीनं महोदय तत्र तादृशः शिशुः तत्र सर्वदा न दृश्यते अतः तत्र विशेषशिशुः अस्ति प्रसन्नः शिशुः अस्ति समीचीनं महोदय अस्तु लक्ष्मी भगिनी अग्रे तत्र विशेषणविशेष्य उदाहरणं
सुन्दरी सुन्दरी लेखनी लेखनी विशेष्यं सुन्दरी लेखन्याः विशेषणम्
लेखन्याः विशेषणं समीचीनं भगिनि धन्यवादः अस्तु नमस्कारः शुभदा भगिनि नमस्कारः गीताञ्जलि भगिनी नमस्कारः श्रीप्रिया भगिनी नमस्कारः चिन्ता मास्तु भगिनि इदानीं तत्र नूतनपाठः अस्ति तत्र पुटसङ्ख्या अस्ति 37 किन्तु तस्मात् प्राक् केवलम् उदाहरणार्थं विशेषणविशेष्यभावस्य उदाहरणानि अतः शुभदा भगिनी एकम् उदाहरणं वदति वा भवत्याः किमपि विशेषणम् एकं विशेष्यं तावदेव
कठिना परिस्थितिः
कठिना परिस्थितिः तत्र विशेष्यं किं विशेषणं किं
विशेष्यं परिस्थितिः कठिना तस्य विशेषणं विशेषणमस्ति कठिना विशेष्यमस्ति परिस्थितिः
अतः तत्र प्रश्नः भवति कीदृशी परिस्थितिः उत्तरं भवति कठिना परिस्थितिः अतः परिस्थितिः कीदृशी इति उत्तरे तत्र विशेषणं भवति अस्तु समीचीनं श्रीप्रिया भगिनी विशेषणविशेष्यस्य तत्र
क्रीडापटुः बालकः बालकः इति विशेष्यमस्ति क्रीडापटुः इति विशेषणं
समीचीनं समीचीनं भगिनि अस्तु गीताञ्जलि भगिनि अस्तु प्रिया भगिनी
नमस्ते विस्मरामि सुन्दरं दिनं
सुन्दरं दिनम् अस्तु विशेष्यं किं विशेषणं किं
विशेष्यं दिनं सुन्दरं विशेषणं
विशेषणं समीचीनम् अस्तु प्रिया भगिनी नमस्कारः
नमस्ते महोदय क्षम्यताम् अहं विनन्ती न आगच्छ
चिन्ता मास्तु भगिनि चिन्ता मास्तु तत्र पाठः अस्ति 37 पुटे किन्तु विशेषणविशेषभावः तस्मात् प्राक् केवलं तत्र उदाहरणार्थं भवत्याः एकम् उदाहरणं विशेषणविशेषभावस्य
अस्तु मधुरं फलं
मधुरं फलं विशेष्यं किं
विशेष्य अत्र फलं विशेषणम् अत्र मधुरं
समीचीनम् अस्तु इदानीं तत्र विशेषणविशेष्यं तत्र विशेषणमस्ति विशेषम् अस्ति अत्र नियमः कः तत्र विशेषणस्य तत्र विशेषणस्य वचनं बहुवचनमस्ति चेत् तत्र विशेष्यस्य वचनं किं भवेत्
एकः श्लोकः अस्ति यल्लिङ्गं यद्वचनं या च विभक्तिविशेषस्य तल्लिङ्गं तद्वचनं सा च विभक्तिविशेषणस्यापि ततः यः लिङ्गः वचनम् अपि च विशेष्यस्य अस्ति तदेव विशेषणस्य अपि अस्ति
अस्ति, समीचीनं भगिनि. अतः तत्र विशेषस्य ज्ञानेन तत्र विशेषणस्य ज्ञानमपि प्राप्तुं शक्नुमः. तत्र वचनं दृष्ट्वा, विशेषस्य वचनं दृष्ट्वा विशेषणस्यापि वचनं सर्वं ज्ञातुं शक्नुमः. अतः तत्र सामान्यं भवेत् तत्र. समीचीनं भगिनि. अतः तत्र इदानीम् अस्मिन् पाठे तद् तत्र भवत्या उक्तः श्लोकः तेन आधारेण तत्र वाक्यानि सर्वाणि रचितानि सन्ति. अतः तत्र विशेषणविशेषभावे तत्र विभक्तिसमानं सर्वम् अस्ति. अतः तम् उपयुज्य तत्र अवगमनं, वाक्यस्य अवगमनं भवति. अस्तु, तर्हि इदानीं पाठस्य आरम्भं कुर्मः. तत्र वेदा भगिनी आरम्भं करोति वा भगिनि?
आं महोदय. जहि शत्रुं महाबाहु विशेषणविशेष्यभावः एतां घटनाम् उच्चैः पठत अवगच्छत च. बहूनां दुर्गाणां जेता शिवराजः स्वकीयं बलं वर्धयति स्म. तस्य उग्रतेजसां दलपतीनां प्रकाशमानाः खड्गाः सर्वासु दिक्षु स्वातन्त्र्याय परिभ्रमन्ति स्म. स्वामिभक्ताः शिवराजसैनिकाः स्युतितेषु दुर्गेषु व्याघ्रवत् आक्रमयन्ति स्म. तेषां बलवद्भिः प्रहारैः धर्मीयाणां मनोबलं प्रतीक्षणं क्षीयते स्म.
हा, समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे लक्ष्मी भगिनि.
अस्तु महोदय. शिवराजस्य पदे पदे वर्धमानं सामर्थ्यं दमयितुम् आदिलशाहस्य सेनापतिः अफजलखानः प्रतिज्ञाम् अकरोत्. तदनन्तरम् एव सः महतीं सज्जताम् आरब्धवान्. न केवलं तावत्, अपि तु शिवराजं कपटस्नेहेन मारयितुं निश्चयं कृतवान्.
हा, निश्चयं कृतवान्. समीचीनं भगिनि. अस्तु, अग्रे नरेश महोदय.
महोदय, ततः अफजलखानः निश्चिन्तेन मनसा शिवराजम् आक्रान्तुं तुलजापुरं प्रति प्रस्थितः. निबिडं जावलीवनं ससैन्यं प्रविश्य पर्वतमूषिकस्य शिवराजस्य ग्रहणं तु दुष्करम् एव. तर्हि का गतिः? सन्धेः व्याजेन शिवराजस्य आह्वानं करणीयम्. तेन अग्रिमं कार्यं सुकरं भवेत् इति खानः चिन्तितवान्. सः दूतमुखेन शिवराजेन मेलितुम् इच्छां प्रदर्शितवान्.
समीचीनं महोदय. अस्तु, अग्रे अग्रे श्रीप्रिया भगिनी पठति वा?
नमस्ते महोदय.
वंशीसद भगिनी नमस्कार. भगिनी, पाठः अस्ति तत्र सप्तत्रिंशत् तमे पुटे.
अस्तु महोदय, पश्यामः.
राजनीतिज्ञः शिवराजः अपि वयोवृद्धं ज्ञानवृद्धं गोपीनाथवर्यं राजदूतरूपेण खानं प्रति प्रेषितवान्. सः गत्वा निवेदितवान्, खानवर्य, भवान् अस्मदीयं महाराजं सन्ध्यर्थम् आहूतमाद्यालुता. भवतः पराक्रमः अग्नितुल्यः. तेनैव अखिलस्य भूमण्डलस्य शोभा वर्धिता अस्ति. पूर्णतया पठामि वा महोदय?
अग्रिमं वाक्यमपि पठतु भगिनि.
किन्तु अत्र आगन्तुं तस्य महद्भयं वर्तते.
धन्यवादः भगिनि. अस्तु, अग्रे गीताञ्जलि भगिनि.
क्षम्यतां महोदय, अहं रात्रिः
न अतः इदानीम् अतः तत्र पूर्वस्मिन् परिच्छेदे अतः भवान् मध्ये.
अस्तु, क्षम्यतां महोदय. अतः भवान् एव जावळीप्रदेशं समागत्य महाराजाय अभयं दातुम् अर्हसि. दूतस्य तथाविधं कातरं वचनं श्रुत्वा खानः जावलिप्रदेशे मेलनम् अङ्गीकृतवान्. ससैन्यं प्रस्थितः सः प्रतापदुर्गात् किञ्चित् दूरे शिबिरं स्थापितवान्. शिवखानयोः मेलनस्थानं शिबिरात् शिबिरात् दूरे अत्तुङ्गस्य
उत्तुङ्गमय उत्तुङ्गस्य
क्षम्यतां महोदय उत्तुङ्गस्य दुर्गस्य अधः एकस्मिन् पटगृहे निश्चितम्.
निश्चितं समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे शोभा भगिनि.
आम् महोदय. रात्रिः अतीता, सूर्योदयः जातः. भवानी भक्तः शिवराजः लौहमयं दृढं कवचं तीक्ष्णानि व्याघ्रनखानि रक्तं शिरस्त्राणं तीक्ष्णं कृपाणं च धृत्वा अपजलेन मेलितुं प्रस्थितः. आगतं शिवराजं दृष्ट्वा अपजलः प्रसन्नः अभवत्. सः स्वस्थानात् सहसा उत्थितः. एषः शिवराजः अबुधः अस्ति इति चिन्तयन् सः तं विविधानि मधुराणि वचनानि उक्तवान्.
तावत्पर्यन्तं भगिनि, धन्यवादः. धन्यवादः. अस्तु अग्रे प्रिया भगिनि.
धीरः शिवराजः अपि तस्य छलयुक्तवचनानि अवगतवान्. अफलजलः समक्षं स्थितं शिवराजम्
आलिङ्गितुं
दीर्घौ हस्तौ प्रसारितवान्. अफलजलः स्थूलः उन्नतः च. राक्षसदेहस्य अफलजलस्य पुरतः
अपजलस्य
क्षम्यतां महोदय.
चिन्ता मास्तु भगिनि.
राक्षसदेहस्य अफलजलस्य पुरतः
लकारः नास्ति भगिनि, तत्र अपजलस्य अपजलस्य
अफल
अफल नास्ति अपजल
अफजलस्य
नूतन नाम अस्ति अतः.
शिवराजः वामनः दृश्यते स्म. घोरमुखः खानः सुदर्शनं शिवराजं झटिति आलिङ्गितवान्. शिवराजस्य शिरः अफजलस्य शिला विशालं उरः अस्पृशत्.
तावत्पर्यन्तं धन्यवादः भगिनि. समीचीनम्. अस्तु अग्रे एतावत् तत्र लक्ष्मी भगिनी पठितवती. उषा भगिनी.
आं महोदय. दुष्टाशयः खानः सपदि शत्रुकर्षणं शिवराजं कण्ठे गृहीत्वा गुप्तरूपेण स्थापितया छुरिकया घातयितुं विफलं प्रयत्नं कृतवान्. शिवराजस्य केवलं कवचं छिन्नं जातं. विद्युत् वेगः शिवराजः अपि स्वकीयेन दीर्घेण कृपाणेन खानस्य उदरं विदारितवान्. हतोऽहं वञ्चितोऽहम् इति उच्चैः क्रन्दन् मूर्तिभञ्जकः खानः छिन्नः वृक्षः इव भूमौ पतितः. भृशं पीडितः गतप्रभः सः क्षणार्धेन मृतः. चिरप्रबुद्धं पापं शान्तम् अभवत्.
समीचीनं भगिनि, धन्यवादः. अस्तु तर्हि अतः तत्र शीर्षकः अस्ति तत्र जहि शत्रुं महाबाहो. महाबाहुः किं कुरु किं करोतु शत्रुं जहि जहि इति तत्र कोऽपि अथवा कापि स्मरति वा तत्र जहि इति श्लोकेषु कुत्र भवति इति कोऽपि स्मरति वा? तत्र अनेकाः श्लोकाः सन्ति येषु जहि इति आगच्छति. अस्तु किन्तु जहि जहि इत्युक्ते तस्य नाशनं करोतु, तस्य हननं करोतु इति. शत्रु शत्रोः मरणं भवेत् इति. अतः तत्र अपि जहि इति तत्र लकारः कः कोऽपि जानाति वा? देहि इव तत्र
जुहोत्या जहाति इति वा महोदय?
हा, किन्तु लकारः तत्र जहि लोट् लकारः. समीचीनं. हा, तत्र देहि त्राहि तत्र बहुत्र वयं तत्र सङ्गीत तत्र सङ्गीत सङ्गीते शृणुमः खलु. त्राहि मां पाहि मां. तत्र जहि अपि लोट् लकारः मध्यमपुरुषः. अतः समीचीनम्. अस्तु, तर्हि इदानीं तत्र आरम्भं कुर्मः, तत्र पङ्क्तिशः परिशीलनं कुर्मः. तत्र शुभदा भगिनी आरम्भं करोति वा भगिनि?
कर्मयोग तृतीय अध्याये अस्ति महोदय, 43 श्लोक नम्बर्
इति वा भगिनि? धन्यवादः भगिनि. अस्तु, हा, 43 वा? अस्तु, तृतीय अध्याये. हा, तृतीय अध्याये
43.
अस्तु भगिनि, धन्यवादः. अस्तु, श्रूयते भगिनि, श्रूयते भगिनि.
जहि शत्रुं महाबाहो. बहूनां दुर्गाणां विजेता शिवराजः स्वकीयं बलं वर्धयति स्म. तस्य उग्रतेजसां दलपतीनां
एकमेकं वाक्यं दृष्ट्वा किञ्चित् वदतु भगिनि.
बहूनां दुर्गाणां विजेता शिवराजः स्वकीयं बलं वर्धयति स्म. तत्र वर्धयति स्म इति क्रियापदं, शिवराजः इति कर्तृपदं. कीदृशं शिवराजः, कीदृशः शिवराजः, विजेता शिवराजः.
विजेता इति प्रातिपदिकं किं? विजेता,
विजेता, विजेतृ इति.
हा, समीचीनं. हा, तत्र विजेतृ इति. हा, तत्र ऋकारान्तपदम्, अतः तत्र कर्ता कर्तृ इव तत्र कर्ता यथा भवति तत्र विजेता विजेतृ विजेता विजेता. तत्र धाता अस्ति, धातृ धाता. अतः तत्र एषः विजयं प्राप्तवान्, अतः एषः विजेता
विजेता शिवराजः. कस्य विजेता? बहूनां दुर्गाणां विजेता. केषां विजेता? बहूनां दुर्गाणां विजेता.
हा, समीचीनं भगिनि. हा, अपि तत्र तत्र पदद्वयं पदद्वयं स्वीकृत्य तत्र विशेषणविशेष्यभावः यत्र अस्ति तादृशपदद्वयम् अत्र किं किम् अस्ति?
अस्तु महोदय, तत्र दुर्गाणाम् इति एकं पदमस्ति, तस्य विशेषणं बहूनाम् इति अस्ति. अतः बहूनाम् इति विशेषणं, दुर्गाणाम् इति विशेष्यं. विशेष्यं वा विशेष्यः वा?
विशेष्यं
विशेष्यम्. बहूनां दुर्गाणाम् इति एकः युगलः अस्ति. विजेता शिवराजः इति अन्यत् युगलः. तत्र शिवराजः इति विशेष्य, विजेता इति विशेषणं. स्वकीयं बलं वर्धयति स्म. अत्र बलम् इति कर्मपदमस्ति. अत्र स्वकीयम् इति तस्य विशेषणं. स्वकीयं बलं, स्वकीयम् इति विशेषणं, बलम् इति विशेष्यं. वर्धयति इति वर्धयति स्म इति क्रियापदमस्ति.
अपि तत्र बलम् इति तत्र प्रायशः तत्र बलं किम् अस्ति? तत्र बलं
कर्मपदम्
कर्मपदमस्ति. हा, द्वितीयविभक्ति. किन्तु तत्र कर्म इति तत्र बलम् इति प्रायशः नपुंसकलिङ्गपदमेव अस्ति इति मन्ये खलु तत्र बलम्. हा, अतः तत्र स्वकीयं बलम् इति भवति. तत्र स्वकीयमपि, अतः तत्र वयं ज्ञातवन्तः इदानीमेव तत्र
विशेषणस्य
लिङ्गमपि समानं. हा,
स्वकीयमपि द्वितीया विभक्ति एकवचने अस्ति.
एकवचने अस्ति, बलमपि तत्र द्वितीयविभक्ति एकवचने अस्ति. तत्र स्वकीयम् इत्युक्ते स्वस्य इति अर्थे खलु, तत्र स्वस्य बलं, स्वस्य बलं. किन्तु तत्र किं भवति, तत्र स्वकीयं स्वस्यम् अर्थसामान्यम् अस्ति, किन्तु तत्र यदा तत्र स्वस्य इति वदामः तत्र किं भवति, कर्त्रोः लिङ्गं स्वीकरणीयं भवति. तत्र यदि भवती वदति स्वकीय, भवती यदि वदति स्वकीयं बलम् इति, तदा किं भवति, तत्र स्वकीयम् इति स्थाने स्वस्या इति न भवति, स्वस्याः बलम् इति भवति. तत्र महिला अस्ति, स्वस्याः बलम् इति भवति, किन्तु स्वकीयं बलं, तत्र बलम् इति नपुंसकलिङ्गे अस्ति, अतः स्वकीयम् अपि नपुंसकलिङ्गे अस्ति, कर्मपदम् अनुगुणं. किन्तु स्वस्य इति भवति चेत् तत्र कर्त्रानुगुणं, तावदेव. अस्तु, केवलं भेदः अस्ति. हा, किन्तु अर्थः स्वकीयम् इत्युक्ते स्वस्य इति. अग्रे
स्वस्य, महोदय क्षम्यतां, स्वस्य इति अपि विशेषणमस्ति न महोदय?
सत्यं भगिनि, किन्तु तत्र भेदः अस्ति. स्वस्य इति कर्तृ अनुगुणं विशेषणं, कर्त्रोः लिङ्गं अनुसर
परिवर्तनं भवति वा? नो चेत् स्वस्या शक्तिः इति वदामः, तत्र तु स्त्रीलिङ्गशब्दः एव भवति किल महोदय?
हा, किन्तु शक्तिः स्त्रीलिङ्गे अस्ति, स्वस्याः, स्वस्या शक्तिः इति वक्तुं शक्नुमः. स्वस्य शक्तिः, स्वस्य शक्तिः इति वक्तुं शक्नुमः. यदि स्वस्य इत्युक्ते कस्य, तत्र कोऽपि पुरुषः अस्ति.
अस्तु, स्वस्य तत्र न उपयोगं करणीयं वा तत्र?
न न, तादृशं नास्ति. स्वस्य अस्ति चेत् स्वस्य, स्वकीयं द्वयमपि तत्र विशेषणरूपेण भवति भगिनि. किन्तु स्वकीयम् अति अस्ति चेत् स्वकीयम् अनन्तरं किं भवति, तत्र अत्र अस्ति स्वकीयं बलं, बलम् इति नपुंसकलिङ्गः, अतः स्वकीयम् इति अस्ति. किन्तु शिवराजः इति पुल्लिङ्गे अस्ति, शिवराज अस्ति चेत् स्वस्य इति भवति, तत्र स्वस्य इति पुल्लिङ्गे अस्ति तत्र.
अस्तु,
यतोहि शिवराजः इति पुल्लिङ्गपदम्, अतः स्वस्य इति भवति. यदि तत्र शिवराजस्य पत्नेः इति वक्तुम् इच्छामः, तत्र शिवराजस्य पत्नेः अथवा शिवराजस्य पत्नीः स्वस्याः फलम् उपयुज्य इति भवति.
अस्तु अस्तु, अत्र अत्र किं भवति महोदय, शिवराजः स्वकीयम् इति अस्ति,
बलम् इति अस्ति, स्वकीयम् अस्ति चेत् बलम् इति पदस्य लिङ्गानुसारं.
सत्यं, परन्तु अत्र तु बलम् इत्यस्य विशेषणमस्ति. यदि
स्वस्य इति अस्ति चेत् तत्र किं भवति, केवलं विशेषणम् अपि मास्तु, तत्र विशेषणमपि अहम् उक्तवान् पूर्वं, विशेषणं दोषः आसीत् तत्र. केवलं, हा, केवलं लिङ्गं, तस्य लिङ्गं कर्त्रोः लिङ्गम् अनुसरति इति तावदेव.
कथं वक्तव्यं, मम प्रश्नः अस्ति, यदि वाक्यद्वयं पश्यतु महोदय, शिवराजः स्वकीयं बलम् इति एकं वाक्यं, शिवराजः स्वस्या शक्ति इति शक्यते वा?
स्वस्य शक्तिः इति एव,
स्वस्य शक्ति, स्वस्या शक्ति न वक्तव्यं?
न न, स्वस्याः इति न भवति तत्र, केवलं महिला, यदि स्वस्याः अस्ति चेत् तत्र महिला भवेत्.
परन्तु तत्र शक्ति इत्यस्य विशेषणं भवति किल, स्वस्याः शक्ति इति वक्तुं न शक्यते वा? स्वस्या शक्ति,
किन्तु तत्र शक्तिः तत्र न, तत्र न न न, स्वस्याः इति तत्र विशेषणं भवति, शक्तेः विशेषणं न भवति तत्र.
किमर्थं वा न भवति?
तादृशम् अस्ति, नियमः अस्ति तत्र, नियमस्ति तत्र, स्वकीयं स्वस्य इति द्वयमपि तत्र समानार्थकपदं, किन्तु तत्र, हा, तत्र शिवराजः स्वस्य शक्तिः भवति अथवा स्वकीया शक्तिः, स्वकीयां शक्तिं वर्धयति स्म इति भवति. स्वकीयां शक्तिं वर्धयति स्म इति भवति अथवा स्वस्य शक्तिं वर्धयति स्म इति भवति.
एतादृशः परिस्थितिः स्वकीय इत्यस्य पदे एव भवति वा, अन्यत्रापि भवति?
एतत् तत्र स्वकीयं स्वस्य बहुत्र दृश्यते, अतः उक्तवान्.
अस्तु महोदय,
तावदेव.
अस्तु
अस्तु, अग्रे शुभदा भगिनी.
स्वीयः इति अपि अस्ति किल महोदय?
हा स्वीयः अपि अस्ति, सत्यं भगिनि. हा तत्र स्वीयः इति प्रायशः तदपि स्वकीय इति एव नियमः इति मन्ये.
आम् महोदय, तत्र एव दत्तम्.
अग्रे श्रुतं भगिनि.
तस्य उग्रतेजसां दलपतीनां प्रकाशमानाः खड्गाः सर्वासु दिक्षु स्वातन्त्राय परिभ्रमन्ति स्म. तस्य उग्रतेजसां दलपतीनां प्रकाशमानाः खड्गाः सर्वासु दिक्षु स्वातन्त्र्याय परिभ्रमन्ति स्म. अस्तु,
तत्र क्रियापदं किमस्ति?
तत्र क्रियापदं तु परिभ्रमन्ति स्म इति अस्ति.
अतः सरलवाक्यं किं भवति तत्र?
खड्गाः परिभ्रमन्ति स्म.
समीचीनं भगिनि. हा खड्गाः परिभ्रमन्ति स्म इति समीचीनं. हा इदानीं तत्र
कीदृशाः खड्गाः? प्रकाशमानाः खड्गाः. अतः प्रकाशमानाः खड्गाः इति विशेषणं विशेष्य सम्बन्धः अस्ति. अपि च उग्रतेजसां दलपतीनां, दलपतीनाम् इत्युक्ते सेनापतीनां वा? तस्य
सत्यं सत्यं सेनापति तत्र सेनापति तु एकः एव प्रायशः भवति. किन्तु दलपतीनाम् इति अस्ति. तत्र प्रथमविभक्तौ किम् अस्ति दलपतीनाम् इति पदस्य प्रथमविभक्ति?
दलपति इति
न न
दलपतिन् वा महोदय?
अतः तत्र किं भवति
दलपति?
हा एकवचने, बहुवचने
दलपतिनः.
अस्तु, हा इदानीं तत्र उग्रतेजसाः दलपतिनः, तत्ते तु तत्र तु अनेकाः भवन्ति खलु. हा केवलम् एकः एव सेनापतिः भवति, किन्तु दलपति अनेकाः भवन्ति इति मन्ये. इदानीं तत्र उग्रतेजसां दलपतीनां तत्र विभक्ति का? तत्र
षष्ठीविभक्ति बहुवचने.
तेषाम्
इत्युक्ते अहं चिन्तयामि दलम् अस्ति किल, अश्वम् अश्वदल अस्ति.
सत्यं भगिनि, समीचीनं. सत्यं भगिनि, तदेव भवेत्. समीचीनं भगिनि, सत्यं. तदेव
अश्वानाम् एकः दलः अस्ति, तस्य एकः दलपतिः गजदल अस्ति, तस्य दलस्य अन्यत् दलपती एतादृशम् अनेकानां दलपतीनाम् अत्र उल्लेखः अस्ति.
प्रकाशमानाः खड्गाः, तत्र खड्गाः प्रकाशमानाः सन्ति. खड्गाः अतः तत्र खड्गः प्रकाशते, खड्गः तेषां खड्गाः प्रकाशन्ते, अतः प्रकाशमानाः खड्गाः किं कुर्वन्ति? प्रकाशमानाः खड्गाः
परिभ्रमन्ति स्म स्वातन्त्र्याय, स्वातन्त्र्यं प्राप्तुं परिभ्रमन्ति स्म.
अपि कुत्र परिभ्रमन्ति स्म ते खड्गाः? सर्वासु दिक्षु. तत्र सर्वासु दिक्षु इति प्रथमविभक्तिरूपं किम् अस्ति बहुवचने?
दिक् इति प्रातिपदिकं. दिक् दिशौ दिशः प्रथमाविभक्तेः प्रथमाविभक्तेः रूपाणि दिक् दिशौ दिशः. तत् दिक् इति स्त्रीलिङ्गरूपमस्ति, अतः सर्वा इति तस्य विशेषणं भवति अत्र.
अतः सर्वाः
सर्वा सर्वे सर्वाः इति भवति. दिक् दिशः दिश दिक् दिशौ दिशः.
अतः सर्वाः दिशः
सर्वाः दिशः.
सर्वाः दिशः तासु खड्गाः स्वातन्त्राय परिभ्रमन्ति स्म. समीचीनं भगिनि, अग्रे.
अपि उग्रतेजसाम् अपि एकं पदमस्ति. तत्र उग्रतेजसाम् इति दलपति उग्रतेजस् इति भवति इति अहं मन्ये. चन्द्रमस्
उग्रतेजः उग्रतेज हा उग्रतेज हा उग्रतेजस् इति प्रायशः अस्ति तत्र सत्यं भगिनि सकारान्त पुल्लिङ्गपदं भवति
महोदय उग्रतेजस् इति प्रातिपदिकं भूत्वा उग्रतेजः तेजाः इति भवति वा एकवचनं
प्रथमविभक्तिरूपं प्रायशः तदेव अस्ति इति मन्ये भगिनि
तत्र
वयं पूर्वं दृष्टवन्तः खलु चेताः इति
चेताः इति एकवचने भवति
तादृशं तादृशमेव अत्र अपि अस्ति इति मन्ये भगिनि यतोहि तत्र तेजस् इति सकारान्तपदमेव अस्ति खलु
वेदस्सपि वेदाः इति भवति क्षमतां
सत्यं भगिनि अतः तत्र उग्रतेजाः दलपति उग्रतेजाः दलपति इति प्रायशः एकवचने अस्ति इति मन्ये तत्र समीचीनं अपि तत्र उग्रतेजा तेजसां दलपतीनां तत्र विशेषणविशेषभावः अस्ति अपि प्रकाशमानाः
खड्गाः सर्वासु दिक्षु
समीचीनं वदतु भगिनि
दलपतीनाम् इति हरिवत् गच्छति इति मन्ये महोदय इकारः
संशयः अपि आसीत् तत्र अस्तु धन्यवादः भगिनि अस्तु
तत्र दीर्घ ईकारः अस्ति खलु दलपतीनाम् इति हरीणाम् इति गुणिनाम् इति अस्ति चेत् ह्रस्व ईकारः एव भवति खलु
समीचीनं भगिनि धन्यवादः धन्यवादः मम केवलं संशयः आसीत् किन्तु तत्र भवती उत्तरं दत्तवती धन्यवादः भगिनि अतः तत्र दलपति इति
महोदय तत्र उग्रतेजसाम् इति समस्तपदं भवति किल तत्र तेजः इति पुल्लिङ्गशब्दः अतः तेजः एव भवति तेजाः भवति वा
तेजस् इति अस्ति खलु भगिनि तत्र
तेजस् इति नपुंसकलिङ्गमस्ति अतः तेजः इति तत्र रूपम् अस्ति महोदय मनः इति शब्दवत् किल मनस् शब्दस्वत् किल मनः
परन्तु अत्र बहुव्रीहि समासः तत्र दलपति इति उग्रतेजसः कः दलपति
सत्यं तत्र तु परन्तु उग्रतेजस् इति शब्दस्य तत्रापि समासः भवति किल उग्र उग्रेण तेजः वा तृतीय
तत्र यस्य तेजः उग्रम् अस्ति सः उग्रतेजः तेजः तेजाः इति
उग्रतेजः यस्य सः
सत्यं परन्तु तत्र तु तेजः इति तेजस् शब्दः न तेजाः नास्ति महोदय तेजः एव भवति पुल्लिङ्गशब्द नपुंसकलिङ्गमेव भवति मनःशब्दस्य भवति महोदय
परन्तु दलपति इति पुल्लिङ्गे अस्ति इति कारणेन पुल्लिङ्गे भवति
तत्र तत्र नियमः कः इत्युक्ते भगिनि तत्र प्रश्नः तु समीचीनमेव तत्र नियमः कः इत्युक्ते तत्र यस्य तेजः उग्रं सः उग्रतेजाः इति भवति तत्र प्रातिपदिकं किं भवति तत्र तेजस् तस्मात् प्राक् उग्रतेजस् इति तदेव तेजस् इति अस्ति प्रातिपदिकं तस्मात् प्राक् उग्र इति स्थापयामः किन्तु इदानीं तत्र तदेव प्रातिपदिकम् इदानीं पुल्लिङ्गरूपेण स्वीकुर्मः अतः तत्र उग्रतेजस् इति पुल्लिङ्गं पदं भवति अतः सकारान्तपुल्लिङ्गपदम् अतः तत्र रूपं तत्र अप्सरस् स्त्रीलिङ्गे अप्सरस् इति स्त्रीलिङ्गे वयं दृष्टवन्तः अत्र तत्र
तत्र धर्मसम्मूढचेताः इति
दृष्टवन्तः
तत्र षष्टिविभक्ति धर्मसम्मूढचेतसाम् एव भवति तादृशः धर्मसम्मूढचेताः इति
चेतसां आसीत् तत्र तेजसाम् इति अस्ति अतः सकारान्तपदम् इति जानीमः तत्र
यद्यपि नपुंसकलिङ्गे अस्ति परन्तु कस्य विशेषणं भवति तस्य आधारेण तत्र परिवर्तनं भवति निगमनम् अस्ति वा महोदय तत्र
सः एकः अन्यः अत्र भगिनि तत्र एतत् सर्वे अग्रे पश्यामः किन्तु तत्र अत्र समासः कः इत्व्यक्ते तत्र बहुव्रीहि समासः तत्रैव लिङ्गपरिवर्तनं कर्तुं साधारणतया भवति अतः तत्र यद्यपि तत्र तेजः इति नपुंसकलिङ्गे अस्ति, किन्तु उग्रतेजस् इति अत्र उग्रतेजः इति पुल्लिङ्गपदं भवति. धन्यवादः भगिनि. अस्तु, अपि श्रीप्रिया भगिनी धन्यवादः. अस्तु, अग्रे शुभदा भगिनि.
स्वामिभक्ताः शिवराजसैनिकाः सूचितेषु दुर्गेषु व्याघ्रवत् आक्राम्यन्ति स्म. स्वामिभक्ताः शिवराजसैनिकाः सूचितेषु दुर्गेषु व्याघ्रवत् आक्राम्यन्ति स्म. अत्र आक्राम्यन्ति स्म क्रियापदं, शिवराजसैनिकाः कर्तृपदं. कीदृशाः शिवराजसैनिकाः? स्वामिभक्ताः शिवराजसैनिकाः. अत्र विशेषणविशेष्यभावः अस्ति. स्वामिभक्तः शिवराजसैनिकः, तस्य प्रथमाविभक्ति बहुवचने स्वामिभक्ताः शिवराजसैनिकाः इति भवति. अपि च सूचितेषु दुर्गेषु, सूचितः दुर्गः इति प्रथमाविभक्तेः रूपं भवति. सूचितः दुर्गः, तस्य सप्तमी विभक्ति बहुवचने सूचितेषु दुर्गेषु. अत्रापि विशेषणं विशेष्यभावः. सूचितः इति विशेषणं, दुर्गः इति विशेष्यं. व्याघ्रवत् आक्राम्यन्ति स्म, व्याघ्रवत् इत्युक्ते क्रियाविशेषणं भवति इति अहं चिन्तयामि.
व्याघ्रवत् आक्रम्यन्ति स्म,
क्रियाविशेषणम् इति
प्रायशः नास्ति भगिनि. क्रियाविशेषणम् अस्ति चेत् तत्र प्रायशः तत्र द्वितीयविभक्तौ भवति, तत्र व्याघ्रवत् इति. अस्तु, तत्र अस्तु, तत्र क्रियाविषये किमपि सूचयति. अस्तु, तत्र क्रियाविशेषणम् इति स्वीकुर्मः. तत्र व्याघ्रवत् ते आक्रम्यन्ति स्म. आक्रम्यन्ति स्म इति स्थाने तत्र आक्रमणं कुर्वन्ति स्म इति स्थापयामश्चेत् किं भवति? तत्र स्वामिभक्ताः शिवराजसैनिकाः
सूचितेषु दुर्गेषु.
इदानीं विभक्ति तदेव, अन्या विभक्ति आवश्यकं खलु, आक्रमणम् इति.
आक्रमणं कुर्वन्ति स्म.
हा, यदि आक्रमणं भवति चेत् तत्र तस्मात् प्राक् विभक्ति का भवति? पुस्तकं पठति, किन्तु पठनम् इति वदामः, तस्मात् प्राक् किं भवति? रामः पुस्तकं पठति अथवा रामः पठनं करोति.
पठनं षष्ठी विभक्ति महोदय.
हा, पुस्तकस्य पठनं करोति. अतः तत्र किं, हा, अतः स्वामिभक्ताः शिवराजसैनिकाः आक्रमणं कुर्वन्ति स्म इति यदि वक्तुम् इच्छामः, तत्र मध्ये किं
दुर्गस्य
तत्र एकवचने, हा,
सूचितानां दुर्गाणां, क्षम्यतां,
सूचितानां दुर्गाणां व्याघ्रवत् आक्रमणं
कुर्वन्ति
स्म. समीचीनं भगिनि. हा, अग्रे.
तेषां बलवृद्धिः प्रहारैः विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीयते स्म. तेषां बलवृद्धिः प्रहारैः विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीयते स्म.
तत्र क्रियापदं किम् अस्ति? तत्र
क्रियापदं क्षीयते स्म. किं अथवा आं किं क्षीयते? मनोबलं क्षीयते.
हा, मनोबलं किं भवति तत्र? प्रतिक्षणं तस् न्यूना भवति, न्यूनं भवति.
परन्तु अत्र कर्मणि प्रयोगः अस्ति महोदय.
हा, सत्यं भगिनि. हा, सत्यं सत्यं. हा,
बलवद्भिः प्रहारैः, अत्र बलवद्भिः प्रहारैः इति कर्तृपदं भवति, मनोबलम् इति कर्मपदं भवति. परन्तु कर्मणि प्रयोगः अस्ति इति कृत्वा कर्तृपदं तृतीयाविभक्तेः रूपं धारणं करोति. अतः बलवद्भिः प्रहारैः इति भवति. मनोबलं प्रथमाविभक्त्याम् अस्ति, कर्मपदम् अस्ति इति कृत्वा प्रतिक्षणं क्षीयते.
अस्तु, तत्र कर्तृरूपेण वदतु, तत्र किं भवति प्रहारः इति?
तेषां बलवत्
तत्र अस्तु, इदानीं केवलं तत्र प्रथमविभक्तिरूपं वदतु, तत्र बलवद्भिः प्रहारैः इति पदस्य प्रथमविभक्तिरूपं किम् अस्ति?
बलवान् प्रहारः.
बलवान् प्रहारः बहुवचने?
बलवन्तः प्रहाराः.
हा, प्रहाराः इति समीचीनं भगिनि. हा, अतः तत्र तैः प्रहारैः किं किं भवति? मनोबलं.
बलवन्तः प्रहाराः इति.
हा, इदानीं तत्र तैः विधर्मीयाणां, विधर्मीयाणाम् इत्युक्ते केषां?
मुघल् मुघल् आसीत्.
हा, तत्र अन्यधर्म, अन्यधर्मः येषां, अन्यधर्म येषां, तेषां मनोबलं प्रतिक्षणं
क्षीयते स्म.
क्षीयते स्म, अस्तु. इदानीं तत्र प्रथमपदं तत्र तेषाम् इति, तेषाम् इत्युक्ते केषां?
तेषां विधर्मीयाणां. तेषाम् इत्युक्ते विधर्मीयाणां. सोरि, क्षम्यतां, तेषाम् इत्युक्ते शिवराजसैनिकानां.
हा, समीचीनं. हा, हा, समीचीनम्. अतः तत्र शिवराजसैनिकानाम्, इदानीं तत्र स्वामी, तेषां स्वामीभक्तानां शिवराजसैनिकानां बलवद्भिः प्रहारैः हा विधर्मीयाणाम् इति. समीचीनं भगिनि, अस्तु, धन्यवादः
महोदय. तत्र एकः प्रश्नः, यदि बलवत् इति शब्दं बलवद्भिः इति भवति चेत् व्याघ्रवत् इति पदं व्याघ्रवद्भिः पौरुषैः इति भवितुम् अर्हति वा?
हा, तत्र भवद्भिः, तत्र तकारस्य धकारः आगच्छति खलु भगिनि?
न, तत्र प्रयोगस्य विषये महोदय. तत्र व्याघ्रवत् इति बहुवचने तृतीयविभक्तौ, व्याघ्रवद्भिः पौरुषैः,
व्याघ्रवद्भिः, वद्भिः इति एव भवति तत्र.
वद्भिः, तादृशः प्रयोगं कर्तुं शक्नुमः,
कर्तुं शक्नुमः. सत्यं भगिनि. मधुमहोदय, नमस्कारः.
नमस्कारः महोदय.
नमस्कारः महोदय. तत्र
क्षम्यताम्,
हा, चिन्ता मास्तु महोदय. पाठः अस्ति तत्र 37 पुटे, 37.
अस्तु महोदय.
अस्तु, तर्हि तत्र अग्रे कः करोति तत्र उक्तवन्तः इति. अस्तु, हा, वंशी सुधा भगिनी अग्रे
महोदय. शिवराजस्य पदे पदे वर्तमानं सामर्थ्यं दमयितुम् आदिलशाहस्य सेनापतिः अफजलखानः प्रतिज्ञाम् अकरोत्.
एकनिमिषं भगिनि, अपि तत्र प्रथमपरिच्छेदे कोऽपि प्रश्नः अस्ति वा? सर्वे अवगच्छन्ति खलु तत्र विषयः कः इति. अस्तु,
तत्र क्रियापदमस्ति अकरोत् महोदय, लङ्लकारः अस्ति. तत्र कर्तृपदमस्ति शिवराजः, शिवराजस्य पद न क्षिपितं तत्र. सेनापतिः अफजलखानः, सः
अपजलखानः इति कर्तृपदम्. अस्तु,
तत्र किं अकरोत् इत्युक्ते प्रतिज्ञाम् अकरोत्, तत्र कर्मपदं भवति. सः प्रतिज्ञाम् अकरोत्.
क्षम्यताम् महोदय, एकः प्रश्नः अस्ति. ऐ डिन्ट् मीन् टु इण्टराप्ट्. पूर्वे पूर्वस्मिन् परिच्छेदे एकः प्रश्नः अस्ति. तत्र अस्ति, प्रकाशमानाः खड्गाः सर्वासु दिक्षु स्वतन्त्रयाः परिभ्रमन्ति स्म इति, ततः अर्थं किम् अहं न अवगच्छामि.
अस्तु अस्तु भगिनि, तत्र तत्र शिवराजः, शिवराजः अस्ति खलु तत्र, सः तस्य दलपति, दलपतयः, दलपतयः सन्ति उग्र, तत्र दलपति उग्रतेज, तेजः दलपति इति, उग्रतेज इति त्यजामः, दलपतयः ये सन्ति ते किं कुर्वन्ति, ते खड्गाः, तेषां खड्गाः सर्वासु दिक्षु, दिक्षु इति जानाति खलु दिक्षु इत्युक्ते
सर्वासु दिक्षु, आम्,
परिभ्रमन्ति स्म इत्युक्ते तत्र दलपतयः सर्वत्र गच्छन्ति स्म तेषां खड्गान् उपयुज्य आक्रमणं सर्वं कुर्वन्ति स्म. अतः तत्र स्वातन्त्राय, किमर्थम् एतत् सर्वं कुर्वन्ति स्म? स्वातन्त्र्यं प्राप्तुम्, अतः स्वातन्त्र्याय परिभ्रमन्ति स्म. परिभ्रमन्ति इत्युक्ते इतः ततः गच्छन्ति, भ्रमन्ति इति अर्थे तत्र. किन्तु तत्र युद्धं कुर्वन्ति इति, युद्धे तत्र भवति खलु, तत्र हस्ते खड्गः अस्ति किन्तु तत्र इतस्ततः गच्छति खलु, परिभ्रमति इति. सर्वासु दिक्षु प्रकाशमानाः इत्युक्ते तत्र खड्गः, न खड्गः प्रकाशते, शैनिङ्ग् इति अर्थः, प्रकाशमानः, शैनिङ्ग् स्वर्ड्स् इति. अन्यधर्मः, यस्य धर्मः अन्यः अन्यः अस्ति सः विधर्मीयः. विधर्मीयः विधर्मीयाणाम् इति षष्ठी बहुवचनं.
क्षम्यतां महोदय, अन्तिमवाक्ये तेषां बलवद्भिः प्रहारैः इति अस्ति खलु, तत्तु उपकरणमेव अस्ति खलु, केन क्षीयते तेषां मनोबलम् इत्युक्ते
बलवद्भिः.
अतः तत्तु कर्तृपदं नास्ति खलु महोदय,
यद्यपि तत्र कर्मणि इव इति चिन्तयितुं शक्नुमः, किन्तु तत्र सत्यमेव, तत्र क्षीयते स्म इति, तत्र मनोबलं क्षीयते स्म, केन इत्युक्ते तत्र बलवद्भिः प्रहारैः क्षीयते स्म इति.
अतः कर्तृपदं कीदृशं कथं भवितुमर्हति
महोदय? अत्र कर्तृपदं तु तत्र मनोबलं एव अस्ति खलु,
मनोबलं क्षीयते,
मनोबलं क्षीयते स्म इति, मनोबलं क्षीयते स्म केन अथवा कैः, तत्र बलवद्भिः प्रहारैः इति.
किन्तु एतत् कर्मणि वाक्यम् अस्ति वा महोदय?
कर्मणि वाक्यं वस्तुतः नास्ति इति मन्ये, किन्तु तत्र तादृशमपि प्रायशः तत्र कर्मणि इति चिन्तयित्वा तत्र तस्य कर्तरीरूपमपि कर्तुं शक्नुमः.
अहं वदामि महोदय एकं वाक्यं, तेषां बलवन्तः प्रहाराः विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीणं कुर्वन्ति स्म.
मनोबलं क्षीणं कुर्वन्ति स्म इति,
प्रहाराः मनोबलं क्षीणं कुर्वन्ति इति अर्थः. तस्य कर्मणि प्रयोगे तस्य तृतीया विभक्ति बहुवचने.
धन्यवादः भगिनी, हा तादृशमेव अस्ति, तत्र कर्तृरूपेण अपि वक्तुं शक्नुमः. किन्तु तत्र प्रश्न समीचीनमेव,
साधनमेव तु अस्ति, परन्तु कर्मणि प्रयोगः अपि अस्ति अत्र, तस्य उपयोगः कर्मणि प्रयोगे प्रयोगम् अनुसृत्य एव अस्ति इति अहं चिन्तयामि.
इदानीं तत्र इदानीम् एषः विषयः मास्तु, तत्र वस्तुतः तत्र किञ्चित् चिन्तनीयमस्ति, किन्तु तत्र अग्रे अग्रे एतत् पश्यामः, तत्र कर्मणि प्रयोगः भावे प्रयोगः सर्वम् अग्रे कुर्मः, तस्मिन् सन्दर्भे स्मरामः एतं वाक्यं. किन्तु तत्र तृतीयायाः प्रथमाविभक्तिरूपेण वक्तुं शक्नुमः यथा भवती उक्तवती. स्वीकृ भगिनी, समीचीनं वा?
चिन्तयामि.
तत्र क्षीयते इति तत्र कर्मणि रूपम् अस्ति न वा इति, तद् सः एव प्रश्नः भगिनि तत्र. किन्तु तत्र
महोदय विधर्मीयाणां तत्र प्रातिपदिकं किम् अस्ति? विधर्मीय वा?
विधर्मीयः, विधर्मः, अहं विधर्मः इति उक्तवान्, क्षम्यतां, विधर्मीयः. यस्य धर्मः अन्यः सः विधर्मीयः, तत्र सम्बन्धः भारतः, भारतं भारतीयः इति अस्ति खलु, तादृशः विधर्मीयः.
तत्र
यस्य अथवा तत्र सम्बन्धमपि अस्ति, अपि तत्र अन्यधर्म अन्यधर्मः यस्य इव अर्थे इति चिन्तयितुं शक्नुमः.
विधर्मीयः, अस्तु महोदय, पठामि वा पठामि वा? अस्तु. सेनापतिः अफल अफजलखानः इति कर्तृपदमस्ति, कर्मपदमस्ति प्रतिज्ञाम् अकरोत्, प्रतिज्ञामिति द्वितीया विभक्तौ अस्ति. अत्र शिवराजस्य पदे पदे शिवराजस्य पदे पदे वर्धमानं सामर्थ्यं तत्र शिवराजस्य पदे पदे इति शिवराजस्य इति षष्ठी विभक्तौ अस्ति पदे पदे इति अव्ययपदमस्ति महोदय वर्धमानं सामर्थ्यं तत्र वर्धमानम् इति शानच् प्रत्ययः अस्ति सामर्थ्यम् इत्यस्य विशेषणम् अस्ति सामर्थ्यम् इति विशेष्यमस्ति तत्र द्वितीयविभक्तौ अस्ति सामर्थ्यम् अपि च वर्धमानम् इति द्वितीयविभक्तौ अस्ति दमयितुं दमयितुं दमयति इत्यस् दमयितुं तुमुन् प्रत्ययः अस्ति दमयितुम् आदि आदिलशाहस्य आदिलशाहस्य सेनापतिः तत्र आदिल सेनापति कस्य देशस्य इत्युक्ते आदिल आदिलशाहस्य इति वक्तुं शक्यते
तत्र देशस्य इति उक्तवती वा
आदिलशाहस्य देशः वा तत्र महोदय
आदिलशाह इति तत्र राजा अस्ति
राजा
ओ
आदिलशाह
अस्तु
अफ्जल् खान्
तत्सर्वं संस्कृतभाषायाम् अस्ति खलु अतः तत्र किञ्चित् क्लेशः
तस्य सेनापतिः अस्तु
आदिलशाह इति राजा तस्य तस्य राज्ञः सेनापतिः अफजलखानः इति
इत्युक्ते शिवराजस्य सामर्थ्यं दमयितुं ते
दमयितुम् इत्युक्ते
दमयितुम् इत्युक्ते अधोभागे पतितं
तत्र दमयितुं तत्र तस्य वर्धनम् इदानीम् एतावत् वर्धितम् अस्ति इदानीम् अग्रे वर्धनं मास्तु
इति कर्तुम् आदिलशाहस्य सेनापतिः प्रतिज्ञां कृतवन्तः
तत्र पदे पदे इत्युक्ते तत्र
पुनः पुनः वक्तुं शक्यते वा महोदय
तत्र एकवारं तत्र अद्य तस्य सामर्थ्यं नास्ति तदनन्तरम् अग्रिमे दिने तत्र सामर्थ्यस्य वर्धनम् अभवत् इति न तत्र पदे पदे प्रतिदिनं तत्र भवति एव तत्र अतः तत्र पदे पदे वर्धमानं सामर्थ्यं तं सामर्थ्यं तत् सामर्थ्यं दमयितुम् एषः प्रतिज्ञाम् अकरोत् तत्र सेनापतिः एषः सेनापतिः अस्ति इदानीं अफजलखानः एषः प्रतिज्ञाम् अकरोत् कीदृशीं प्रतिज्ञाम् अकरोत् एषः इति अग्रे तत्र कीदृशं तत् दत्तमस्ति तत्र दमयितुम् अहं तस्य सामर्थ्यस्य तत्र कस्य सामर्थ्यस्य सामर्थ्यं दमयितुं प्रतिज्ञां शिवराजस्य इदानीं तत्र दमयितुम् इति स्थाने दमनं कर्तुम् इति स्थापयामश्चेत् किं भवति
दमनं कर्तुं शिवराजस्य पदे पदे वर्तमानं दमनं कर्तुं दमयितुम् इति दमनं कर्तुमपि वक्तुं शक्यते वा
किन्तु यथा तत्र पाठ सः पाठं पठति पाठस्य पठनं करोति तत्र पुस्तकस्य पठनं करोति इति तादृश दमनं कर्तुम् इति स्थापयामश्चेत् किं भवति
तत्र भवति वर्तमानं तत्र द्वितीय षष्टिविभक्ति भवति
इदानीं किं भवति
सामर्थ्यस्य सामर्थ्यस्य वर्तमानः वर्तमानस्य
तत्र दमनं वर्धमानस्य सामर्थ्यस्य
दमनं कर्तुं
इति तावदेव समीचीनं भगिनि अस्तु अग्रे
तदनन्तरम् एव सः महतीं सज्जताम् आरब्धवान् तदनन्तरम् इति अव्ययपदमस्ति आरब्धवान् इति भूतकाले भूतकालकृदन्तमस्ति तत्र तवतु प्रत्ययः सः किं कृतवान् कः कृतवान् सः इति
कर्तृपदमस्ति
सेनापतिः महोदय
सेनापतिः अफजल् खानः सः आरब्धवान् इदानीं तत्र किम् आरब्धवान् इति वक्तुं शक्नुमः खलु
सः महतीं सज्जताम् आरब्धवान् तत्र महतीं सज्जतां महतीम् इति द्वितीया विभक्तौ सज्जताम् इति षष्ठी विभक्तौ अस्ति किल महोदय तत्र
इति तत्र कर्मपदं भवितुम् अर्हति वा? तत्र किम् आरब्धवान् इति
कस्य विशेष आरब्धवान् तु अव्ययम् तवतु प्रत्ययः तु
न न अव्ययं नास्ति, तत्र त्वान्तम् अव्ययम् अस्ति.
भवतु
गतवान्, पठितवान्, आरब्धवान्, आरब्धवती, तत्र अतः तत्र विशेषणम् अस्ति खलु.
सः आरब्धवान् तस्य सः इत्यस्य विशेषणं भवति.
विशेषणम् आरब्धवान्, इदानीं तत्र किम् आरब्धवान्?
किम् आरब्धवान् इत्युक्ते तत्र महतीं सज्जताम् आरब्धवान्. परन्तु सज्जताम् इति सज्जता अस्ति वा महोदय? तत्र सज्जता इति स्त्रीलिङ्गशब्दः अस्ति, अतः तस्य विशेषणम् अस्ति महतीम् इति. महती शब्दस्य स्त्रीलिङ्गशब्दः ईकारान्तशब्दः, तस्य विशेषणमस्ति महतीम्. अतः कर्म न
परन्तु
सत्यं महोदय. अस्तु, न केवलं तावत् अपि तु शिवराजं कपटस्नेहेन मारयितुं निश्चयं कृतवान्. अस्तु, सेनापतिः न केवलं तावदेव अपि तु शिवराजं
तावत् कृतवान्. केवलं तत्र केवलं सज्जतां महतीं सज्जतां तावदेव कृतवान् इति न, केवलं सज्जतां कृतवान् इति न, किन्तु
मारयितुं निश्चयम् कर्तृपदमस्ति, सः एव भवति अन्वयः भवति महोदय. सः कृतवान् इति भवति. तत्र सः किं कृतवान् इत्युक्ते मारयितुं निश्चयं कृतवान्. मारयितुं निश्चयम् इति
कर्मपदं
तस्य विशेषणमस्ति मारयितुम् इति.
तत्र मारयितुं तु तुमुन् अस्ति, अव्ययम् अस्ति.
ओ, मम प्रभार सर्वदा तुमुन् मारयितुं निश्चयं कृतवान्. अपि तु शिवराजं कपटस्नेहेन
कपटस्नेहेन तत्र तत्र कपटस्नेहेन इत्युक्ते तत्र
कपटस्नेहेन इत्युक्ते
तत्र सः मित्रं सः मित्रमिव दृश्यते, किन्तु
मनसि किमपि भावना
अन्य अन्य भावः अस्ति, अतः तत्र स्नेहभावं प्रकटयित्वा तत्र किमपि अनन्तरं तस्य मारणं करोमि इति सः निश्चयं कृतवान्. तत्र कपटस्नेहः इति तत्र मार्गः अस्ति, तेन मार्गेण अहम् अथवा तेन तत्र उपायेन अहं मारयितुं शक्नोमि इति सः निश्चयं कृतवान्.
हा, तत्र कं मारयितुं कं कपटस्नेहेन मारयितुं निश्चयं कृतवान् इत्युक्ते शिवराजं कपटस्नेहेन मारयितुं निश्चयं कृतवान्.
हा, समीचीनं. हा, समीचीनम् अस्तु.
न केवलं तावत् सत्यं.
हा, अतः तत्र सः द्वयं कृतवान्, एकम् अस्ति सज्जतां कृतवान्, अन्यत् अस्ति तत्र निश्चयमपि कृतवान्
अकरोत्.
समीचीनं भगिनि,
तावदेव
तावदेव धन्यवादः भगिनि. अस्तु, अग्रे ललिता भगिनि.
महोदय, अत्र क्षीयते इति कर्मणि एव अस्ति महोदय
इति वा? अस्तु,
तत्र ह्रस्व इकारान्त ह्रस्व उकारान्त धातूनां कर्मणि भावे दीर्घ इकारान्त भवति.
धन्यवादः भगिनि. अस्तु अस्तु, अतः तत्र कर्तृरूपेण अपि वक्तुं शक्नुमः. अस्तु, धन्यवादः भगिनि. अस्तु, श्रीप्रिया भगिनी, उत्तरं प्राप्तम्. अस्तु भगिनि, अस्तु, समीचीनं,
धन्यवादः,
धन्यवादः. अस्तु, अस्तु, ललिता भगिनी अग्रे.
ततः अफजल् खानः निश्चिन्तेन मनसा शिवराजम् आक्रान्तुं तुळजापुरं प्रति प्रस्थितः. प्रस्थितः इति क्रियापदमस्ति. कः प्रस्थितः? अफजल् खानः प्रस्थितः.
साक्षात् तत्र विशेषणम् अस्ति खलु, विशेषणं, सः प्रस्थितः, अफजल् खानः प्रस्थितः.
प्रस्थितः कीदृशः अफ्सल् खानः शिवराजं किम् अजापयम्
तत्र प्रस्थितः इत्युक्ते तत्र प्रति इति अस्ति
प्रति प्रति अव्ययम्
अस्ति चेत् तत्र नियमः कः प्रतिपदम् अस्ति चेत् तत्र उपपदविभक्ति
इत्युक्ते द्वितीया विभक्ति
प्रतिगृहं
प्रति
गृहं प्रति इति अतः तत्र अत्र किमस्ति तुळजापुरं प्रति
तुळजापुरं प्रति
अतः तत्र सरलवाक्यं किं भवति अपजलकानः तुळजापुरं प्रति तुळजापुरं प्रति प्रस्थितः एतत् सरलवाक्यं खलु तत्र
सरलवाक्यं
इदानीं मध्ये किं किम् अस्ति इति दृष्ट्वा
मध्ये
किं कर्तुं
चिन्तेन मनसा
एतत् वदतु तत्र किं कर्तुं सः प्रस्थितः
किं कर्तुम् आक्रान्तुं प्रस्थितः आक्रान्तुं प्रत्यय अस्ति
तुमुन् प्रत्यय तत्र आक्रान्तुं तत्र
किम् आक्रान्तुं शिवराजम् आक्रान्तुम्
शिवराजम् आक्रान्तुं
कर्मपदमस्ति शिवराजं कर्मपदम्
शिवराजं
मनसा इत्युक्ते निश्चिन्तेन मनसा तृतीया विभक्ति अस्ति मनस्शब्दस्य मनसि मनांसि मनसा मनोभ्यां मनोभिः
निश्चिन्तेन
मनसा
तत्र निश्चिन्तेन निश्चिन्तं मनः निश्चिन्तेन मनसा इति समीचीनं भगिनि तत्र तेन मनसा सः प्रस्थितः तत्र तत्र तेन मनसा तत्र तेन मनसा इति अस्ति तत्र तृतीया इति अस्ति किन्तु तत्र
प्रस्थितवान् अपि लेखितुं शक्नोति न
सत्यं भगिनि
प्रस्थितवान्
तत्र तत्र प्रस्थितः इति
किमर्थं प्रस्थितः इति
किन्तु साधारणतया तप्रत्यय किं भवति तत्र कर्मपदं सूचयति कर्मपदार्थे भवति तत्र पठितं पुस्तकं दृष्टः वृक्षः मया दृष्टः वृक्षः अथवा तया दृष्टः वृक्षः इति तत्र किन्तु गत्यर्थक तत्र धातवः ये सन्ति तेषां कर्त्रार्थे अपि तप्रत्ययस्य उपयोगं भवितुम् अर्हति तत्र प्रस्थितः इति कर्तृपदं सूचयति तत्र कः प्रस्थितः इति सूचयति अतः तत्र अपजलकानः प्रस्थितः एकनिमिषः अपि तत्र निश्चिन्तेन मनसा इति अस्ति तत्र तत्तु तृतीया अस्ति चेत् तत्र वयं जानीमः भावः भावतृतीया इति जानीमः किन्तु तत्र भावतृतीया अस्ति निश्चिन्तं मनः मनः इति नपुंसकलिङ्गपदम् इति अपि तत्र जानीमः तत्र तृतीया अस्ति चेत् तत्र किं भवति तत्र सः सन्तोषेण गायति अथवा सा सन्तोषेण गायति इति अस्ति चेत् तत्र गायति इति क्रियापदं तत्र केन भावेन गायति इति अस्ति चेत् तत्र सन्तोषेण गायति इति अस्तु अत्र निश्चिन्तेन मनसा इति भावः अस्ति किन्तु क्रियापदं किम् अस्ति अत्र निश्चिन्तेन मनसा इति अस्ति निश्चिन्तेन मनसा किं किं तत्र क्रियापदं किम् अस्ति तत्र सा सन्तोषेण गायति इति तादृशक्रियापदम् अत्र किं तादृश सरलवाक्यम् अत्र किम् अस्ति
प्रस्थितः एव भवति न
सत्यम् सः निश्चिन्तेन मनसा प्रस्थितः इति सः निश्चिन्तेन मनसा न सः निश्चिन्तेन मनसा शिवराजम् आक्रन्तुम् इति नास्ति खलु
खलु शिवराजम् आक्रान्तुम्
अस्ति किन्तु तद् वाक्यं नास्ति खलु तद् निश्चिन्तेन मनसा अहम् आक्रमणं करोमि इति नास्ति खलु तत्र निश्चिन्तं
मनः मनसा शिवराजम् आक्रान्तुं तुल्जापुरं प्रति प्रस्थितः.
अतः तत्र क्रिया किं का आसीत्? क्रिया सा
प्रस्थितः
सा क्रिया कीदृशी आसीत्? तत्र तत्र भावः कः इत्युक्ते निश्चिन्तेन मनसा सः प्रस्थितः. तदनन्तरं किं कर्तुम् इति अन्यः विषयः. तत्र सः निश्चिन्तेन मनसा अहं शिवराजस्य आक्रमणं करोमि इति न खलु, केवलं निश्चिन्तेन मनसा सः गतवान् प्रस्थितवान् तावत् अग्रे.
निबिडं जावलीवनं ससैन्यं प्रविश्य पर्वतमूषिकस्य शिवराजस्य ग्रहणं तु दुष्करम् एव.
इदानीं तत्र
निबिडं जावलीवनं प्रविश्य
क्रियापदं किम् अस्ति अस्मिन् वाक्ये?
किं दुष्करमेव? शिवराजस्य ग्रहणं तु पर्वतमूषिकस्य शिवराजस्य ग्रहणं तु दुष्करमेव. विशेषणविशेष्यम् अस्ति पर्वतमूषिकः शिवराजः.
तत्र शिवराजं ग्रहीतुं सुलभः नास्ति. तत्र अतः तत्र तस्य ग्रहणं तु तु इत्युक्ते कठिनकार्यं इति ग्रहणं तु दुष्करमेव. पर्वतमूषिकः शिवराजः, पर्वतमूषिकः इत्युक्ते
पर्वतमूषिक इत्युक्ते विशेषणविशेष्यम् अस्ति शिवराजस्य. पर्वतः इव पर्वतमूषिकस्य राजस्य ग्रहणं पर्वतमूषिकः शिवराजः.
पर्वतमूषिकः समीचीनं, पर्वतः मूषिकः शिवराजः. किमर्थं तत् उक्तम् अत्र?
बहु पर्वत इत्युक्ते बहु महत् महत् कार्यमस्ति सः.
न तत्र भवती जानाति, किन्तु तत्र वयं दृष्टवन्तः तत्र शिवराजस्य ग्रहणं दुष्करं खलु, कठिनम् अस्ति. अतः तत्र कीदृशम् अथवा किमर्थं कठिनम् इति अथवा कीदृशम् इति वदन्ति अत्र? तत्र पर्वते यदि मूषिकः अस्ति, मूषिकस्य ग्रहणं सुलभं वा कठिनं वा?
कठिनं
कठिनम्. अतः तत्र तादृशः अतः शिवराजः तादृशः अस्ति. पर्वते मूषिकः यदि भवेत् यथा तस्य ग्रहणं कठिनं, तथैव शिवराजस्य अपि ग्रहणं कठिनं दुष्करम्. अतः शिवराजः पर्वतमूषिक इव अस्ति अथवा पर्वतमूषिकः विशेषणं वक्तुं शक्नुमः. अतः तस्य ग्रहणं कठिनम्. इदानीं तत्र तस्मात् प्राक् किमस्ति?
निबिडं जवळीवनं कीदृशः वनं? वनम् इति द्वितीया विभक्ति कर्मपदं. कीदृशवनं? निबिडं जवळीवनं घोरवनम् अस्ति.
निबिडम् इत्युक्ते तत्र अनेकाः वृक्षाः सन्ति, तत्र मध्ये तत्र स्थलमेव नास्ति, तत्र निबिडम् अस्तु. तत्र जावळीवनं, तत्र विभक्ति का भवत्या उक्ता?
निबिडं जावळीवनं द्वितीया विभक्ति.
अतः किमर्थं?
कीदृशं वनं? निबिडं वनम्
अस्तु, किन्तु विभक्ति किमर्थं द्वितीया तत्र?
सैन्यं प्रविश्य लबन्तपदमस्ति तत्र
प्रविश्य लबन्तपदमस्ति अस्तु समीचीनं
सैन्यमस्ति
सैन्यम् इति अस्ति तत्र कर्तृपदं किम् अस्ति अस्मिन्
कर्तृपदं
सः प्रविशति
न कुत्र प्रविशति अपि कुत्र प्रविशति निबिडं जबलीवनं प्रविशति
तत्र प्रविश्य इति अस्ति सैन्यं प्रविश्य तस्य ग्रहणं दुष्करम् एव इति तत्र प्रविश्य इति अस्ति किं प्रविश्य इति इत्युक्ते
जवळीवनं प्रविश्य निबिडं वनं प्रविश्य
हा निबिडं वनं प्रविश्य ससैन्यं
ससैन्यम् इत्युक्ते सैन्यैः सह
तत्र सैन्यम् इति प्रायशः नपुंसकलिङ्गे अस्ति अपि एकवचनमेव एकमेव सैन्यं खलु अतः तत्र सैन्येन सह इति प्रायशः
सैन्येन
सह किन्तु तत्र सैन्येन सह
प्रविश्य पर्वतमूषिकस्य शिवराजस्य ग्रहणम् इति
तत् कर्तुं दुष्करं
दुष्करमेव इति चिन्तयति
अग्रे
तर्हि का गति इत्युक्ते गति स्त्रीलिङ्गपदमस्ति अतः का गति किं कुर्मः इति
अग्रे गन्तुं कः मार्गः इति
सः चिन्तितवान् सन्देहे व्याजेन शिवराजस्य आह्वानं करणीयम्
तत्र सन्देहे इत्युक्ते किं
सन्देहे इत्युक्ते सन्धि योजनं मित्रता शिवराजस्य मित्रता प्राप्तुं सः व्याजेन इत्युक्ते किं
कपटेन
ओके मित्रता प्राप्तुं सः किं करणीयम् इति
मित्रे भवावः इति उक्त्वा तत्र तस्मिन् तादृशं प्रकटं
सन्देहे इत्युक्ते षष्टिविभक्ति अस्ति व्याजेन तृतीया विभक्ति शिवराजस्य आह्वानं तस्य करणीयं किं करणीयं
सन्धिः स्त्रीलिङ्गे अस्ति तत्र सः सन्धिं कर्तुं न इच्छति सः खलु सन्धिं कुर्मः इति
प्रकटयति तस्य भावः प्रकटयति परन्तु
वस्तुतः सः तत् कर्तुं न इच्छति इति अतः तत्र केवलं तत्र वाक्ये तादृशम् अस्ति किन्तु
मनसि
कपट अस्ति सत्यं तदेव अस्ति अस्तु समीचीनं
महोदय तत्र क्षम्यतां महोदय तत्र सैन्यं रूपं किं तत्र महोदय
ससैन्यं तत्र सैन्येन सह इति
अर्थः तु अवगतं किन्तु रूपं किं महोदय
तत्र कर्मपदम् अस्ति भगिनि
कर्मपदम् अपि च निबिडं जावळीवनम् अपि द्वितीया वा
एकनिमिष भगिनि समीचीनप्रश्नः
इत्युक्ते स सैन्यं प्रविश्य वा वनं प्रविश्य
वनं प्रविश्य
एकनिमिष भगिनि क्षम्यतां अस्तु 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 एकनिमिषः
प्रश्नः कः महोदय
तत्र ससैन्यम् इति पदस्य विभक्ति का इति तत्र कर्मपदं वा इति, किन्तु प्रविश्यति तत्र
अव्यभावसमासः अस्ति महोदय. ससैन्यम् इति नपुंसकलिङ्गे अस्ति सर्वदा. सहसैन्यं ससैन्यम् इति अव्यभावसमासः अस्ति, भगिनी जानाति किल. सहरि
किन्तु अत्र अत्र किम् अस्ति इति, तत्र प्रविश्यति तत्र निबिडं जावळीवनम् एव प्रविश्य,
अतः द्वितीयविभक्ति भवति महोदय. प्रविश्य इति अस्य ल्यबन्तपदम् अस्ति, अतः तस्य ससैन्यम् इति द्वितीया विभक्ति भवति महोदय.
किन्तु तत्र कर्मपदं नास्ति भगिनि, तत्र ससैन्यम् इति कर्मपदं नास्ति तत्र,
किन्तु नपुंसकलिङ्गं पदमेव अव्ययीभावसमासमेव.
धन्यवादः भगिनि. अस्तु अस्तु, अग्रे हा अग्रे कुत्र स्मः वयम्? अत्र सन्देहे व्याजिनः
पठामि वा? तेन
आह्वानं
करणीयम् इति चिन्तितवान्.
तत्र तस्य आह्वानं कुर्मः, सन्धिं कुर्मः इति आह्वानं कुर्मः.
तेन अग्रिमं कार्यं सुकरं भवेत् इति खानः चिन्तितवान्.
तत्र तेन इत्युक्ते केन?
तेन अफजल खानेन.
न न, तेन इत्युक्ते
तेन तेन अग्रिमं कार्यम्
इति सः चिन्तितवान्, खानः चिन्तितवान्. तत्र तेन इत्युक्ते शिवराजस्य आह्वानं, तत्र
आह्वानेन
अग्रिमं
सुकरं
इत्युक्ते सुलभम्
अग्रिमं कार्यं विशेषणं विशेष्यं कार्यं विशेष्यं
सुकरं कार्यम् इति विशेष्यम्
अग्रिमं विशेषणं
सुकरं
सुकरम् इत्युक्ते दुकरं सुकरं सुकरम्
इति सुलभं सुलभं भवति इति
सर्वे सुकरं भवेत् इति खानः चिन्तितवान्.
कार्यम् अग्रिमं कार्यं सुलभं भवेत् इति,
सफलता भवेत् इति,
तत्र सुलभतया कर्तुं शक्नुमः इति चिन्तितवान् सः. अग्रे
अग्रे सः दूतमुखेन शिवराजेन मेलितुम् इच्छां प्रदर्शितवान् प्रदर्शितवान् क्रिया अस्ति दूतमुखेन मेलितुं. किं कः प्रदर्शितवान्
सः इत्युक्ते कः?
अफजल अफजल खानः दूतमुखेन दूतमुखेन इत्युक्ते तृतीया विभक्ति दूत
भगिनी एतत् सरलतया कुर्मः प्रथमतया. तत्र सः किं क्रियापदं किम् अस्ति? सः
इच्छां प्रदर्शितवान् इच्छां प्रदर्शितवान् किं कर्तुम् इच्छां प्रदर्शितवान् मेलितुम् इच्छां प्रदर्शितवान्
मेलितुं
केन सह दूतमुखेन मेलितुम् इच्छां प्रदर्शितवान् दूतमुखेन शिवराजेन
मेलितुम् केन
शिवराजेन मेलितुम्
तत्र केन सह मेलितुम् इति प्रथमतया तत्र भेदः कुर्मः. केन सह मेलितुम् केन सह मेलितुं सह मिलामि इति भवति. अहं मित्रं मिलामि न खलु, तत्र मित्रेण सह मिलामि खलु. अतः तत्र सः केन
सह सः न गतवान् तत्र स्वयं न गतवान्
किन्तु केन सह मेलितुम् इच्छति सः
शिवराजेन सह
शिवराजेन सह मेलितुम्
इच्छां प्रदर्शितवान्
न इच्छति सः. अतः शिवराजेन इति तृतीया अस्ति किमर्थमस्ति तेन शिवराजेन सह मेलितुम् इच्छा अस्ति तस्य. इदानीं ताम् इच्छां केन मार्गेण सः प्रदर्शितवान्
केन मार्गेण दूतमुखेन
दूतमुखेन
स्वयं न गतवान् परन्तु दूतं प्रेषितवान्.
इदानीं तत्र शिवराजेन दूतमुखेन इति यदि वदामः तत्र क्लेशः भवति खलु, तत्र द्वयमपि तृतीयविभक्ति
तृतीया विभक्ति अस्ति
तत्र एकमस्ति शिवराजेन सह मेलितुम् अपि दूतमुखेन प्रदर्शितवान् इच्छां प्रदर्शितवान् इति अस्तु अस्तु समीचीनम् अत्र आम् मधु महोदय भवान् किञ्चित् अग्रे धन्यवादः भगिनि तत्र एकं वाक्यं स्वीकृत्य किञ्चित् वदति वा महोदय अग्रिमं वाक्यं
महोदय राजनीतिज्ञः शिवराजः अपि वयोवृद्धं ज्ञानवृद्धं गोपिनाथवर्यं राजदूतरूपेण खानं प्रति प्रेषितवान्
तत्र अपि इति अस्ति किमर्थम् अपि इति अस्ति यतोहि तत्र अफ्जल् खानः किं कृतवान् दूतमुखेन प्रदर्शितवान् इत्युक्ते अफ्जल् खानः अपि दूतं प्रेषितवान् इदानीं अफ्जल् खान् दूतं प्रेषितवान् इदानीं शिवराजः अपि
दूतरूपेण
दूतं प्रेषितवान् खानं प्रति प्रेषितवान् खानं प्रति प्रेषितवान् सः राजदूतरूपेण इति अस्ति नाम तत्र कोऽपि अस्ति सः एव राजदूतः आसीत् कः राजदूतः आसीत् तत्र गोपिनाथवर्यः वर्यः अस्ति तं प्रेषितवान् अतः गोपिनाथवर्यम् इति द्वितीयविभक्तिरूपं गोपिनाथवर्यं प्रेषितवान् तत्र गोपिनाथवर्यः कीदृशः अस्ति सः ज्ञाने सः वृद्धः इत्युक्ते सः प्रायशः सः वृद्धः इति नास्ति किन्तु तस्य ज्ञानं ज्ञाने वर्धनं तस्य ज्ञानं बहु अस्ति इति कृत्वा तत्र ज्ञानवृद्धः गोपिनाथवर्यः अपि अत्र अत्र दत्तमस्ति वयोवृद्धः अपि अतः सः वृद्धः एव वयसि अपि सः वयसि अपि सः वृद्धः ज्ञाने अपि सः वृद्धः अतः वयोवृद्धः ज्ञानवृद्धः गोपिनाथवर्यः अस्ति तं गोपिनाथवर्यं कः प्रेषितवान् शिवराजः खानं प्रति प्रेषितवान् समीचीनं राजदूतरूपेण इदानीं शिवराजः कीदृशः राजनीतिज्ञः इत्युक्ते राजनीतिं जानाति एषः अतः एषः राजनीतिज्ञः शिवराजः इति अस्तु धन्यवादः महोदय अग्रिमवर्गे भवान् निश्चयेन पठति क्षम्यतां
खानम् इति अरण्यं वा
किं भगिनि
खानम् इत्युक्ते किम् अरण्यं
न खानम् अपजलखानम्
ओ खानं
प्रति खानं प्रति प्रति अस्ति अपजलखानः अपजलखानं प्रति
खानं वनं खानं खानम्
एतत् अस्तु वंशीसुधा भगिनी तत्र निमिषं स्वीकृत्य भवती वदतु भवती यद् वक्तुम् इच्छति सर्वे निमिषद्वयं कृपया तिष्ठन्तु
मम एका प्रार्थना अस्ति यदि कक्षा पूर्वस्मिन् इव षड्वादने प्रारम्भं भवितुं शक्यते वा इति मम एका प्रार्थना सर्वेषां कृते यतोहि सार्धपञ्चवादन भारतीनां कृते बहु क्लेशः अनुभवन्ति अतः किञ्चित् मम इव न मम न सर्वेषां भारतीयानां
मम अपि
सर्वेषां किमर्थम् इत्युक्ते सार्धपञ्चवादनः इत्युक्ते सर्वेभ्यः कृते सर्वेभ्यः सार्धचतुर्वादने एव उत्तिष्ठामः तत्र किञ्चित् क्लेशः तु अनुभवामः अतः सर्वे पश्यन्तु यतोहि पूर्वस्मिन् षड् मासात् पूर्वं तु षड्वादने एव भवति सार्धपञ्चवादन कदापि न भवति अस्माकं कक्षा द्विवर्षात् पूर्वमपि
अतः मम प्रार्थना अस्ति पूर्वस्मिन् समयः यः अस्ति यः समयः अस्ति तदेव भवतु, नो चेत् किञ्चित् सर्वेषां लाभाय भवति इति मम प्रार्थना. यतोहि तत्र परिवर्तनं न इच्छामि महोदय, तत्र तु केवलं पूर्वस्मिन् समयः कः अस्ति तदेव भवतु इति मम प्रार्थना.
अतः तत्र भवत्याः तत्र प्रार्थना अथवा इच्छा अस्ति, तत्र भारतदेशे षड्वादने तत्र आरम्भं
कृत्वा सार्धसप्तवादनतः यत् भवति
षड्वादने
तद् भवति अमेरिका देशे तत्र किं सार्ध अष्टवादनतः दशवादनपर्यन्तम् इति.
महोदय सायङ्काले अर्धघण्टा इतः अतः किमपि न भवति महोदय,
किन्तु अत्र अत्र मम किमपि नास्ति भगिनि, तत्र छात्राणां कृते यः समयः समीचीनः.
परन्तु एतस्य विषये किमर्थम्? अस्माकं तु पूर्वमपि डेलैट् सेविङ्ग् अभवत्, तत्रापि षड्वादने एव भवति, परन्तु अस्य इदानीं किमर्थं चर्चा भवति इति न जानामि महोदय. द्विवर्षात् पूर्वमपि तत्र चर्चा एव न भवति, षड्वादने एव पुनः कक्षा आरम्भं
कृतवान्. तत्र चर्चा आसीत् तत्र, मयापि तत्र गूगल्
फार्म् मम प्रश्नः अस्ति किमर्थं सर्वदा किमर्थं
भगिनि एतत् कुर्मः तत्र पृच्छामः तत्र के
यदि एतादृश भवति तर्हि US सार्धपञ्चवादने प्रातःकाले करोतु महोदय, आवां सर्वे रात्रौ आगच्छामः, अहं मम किमपि क्लेशः नास्ति. USA सार्धपञ्चवादने करोतु महोदय.
भवत्याः त्रिवादने अस्ति सायङ्काले त्रिवादने.
न चिन्ता मास्तु, मम तु सायङ्काले किमपि क्लेशः नास्ति महोदय, प्रातःकाले किमर्थम् इत्युक्ते बहवः कार्याणि सन्ति, तत् कृत्वा एव आगर्तुं शक्यते. हा यतोहि US देश मध्ये जनाः प्रातःकाले क्लेशः नास्ति तर्हि सार्धपञ्चवादने US समयः करोतु महोदय.
मम एकवर्गः सार्धपञ्चवादने अस्ति अधुना सार्धपञ्चवादने एव अस्ति. अहं US मध्ये अस्मि परन्तु मम एकः वर्गः अस्ति सार्धपञ्चवादने. अहम् उत्तिष्ठामि.
न सत्यं परन्तु मम प्रश्नः अस्ति किमर्थं सर्वदा चर्चा भवति इति मम प्रश्नः. यत् यतोहि महोदय आरम्भं कृतवान् षड्वादने एव किं जान् 2019 मध्ये तत्र षड्वादने एव समयः अभवत्, तर्हि प्रतिवारं किमर्थं चर्चा भवति इति मम प्रश्नः. यतोहि अहं तु सार्धषड्वादने एव न पृच्छामि किल, षड्वादने एव पृच्छामि किल.
महोदय क्षम्यता महोदय, बुधवासरं त्यक्त्वा अन्य दिनं स्थापयितुं शक्यते वा?
बुधवासरं इतोपि कठिनः इति मन्ये.
अन्य एकवर्गः अपि अस्ति, क्लाश् भवति.
महोदय भवान् एव चिन्तयतु, चिन्तित्वा एकवारं पुनः चिन्तित्वा किं कृतवान् द्विवर्षं पूर्वात् तदेव करोतु महोदय. मम प्रश्नः तदेव,
किन्तु अहं चिन्तयामि भगिनि, प्रतिवारम् अहं पृष्टवान्.
न महोदय, यत् भवान् प्रेषितवान् मम पार्श्वे सर्वे ई पत्रमपि अस्ति, अहं दृष्ट्वा प्रेषयामि. भवान् उक्तवान् षड्वादने भवति, डेलैट् सेविङ्ग् अभवत्. मम पार्श्वे सर्वाणि करपत्राणि सन्ति महोदय, भवतः ई पत्राणि अहं दृष्ट्वा प्रेषयामि. किमर्थम् इत्युक्ते अहं दृष्टवती द्विवारम्.
अस्तु भगिनि इदानीं तत्र अस्तु. अत्र किं चिन्तनं सर्वेषां कृते प्रश्नः इदानीं, तत्र सर्वे आगन्तुं शक्नुवन्ति वा? यदि तत्र सार्ध अष्टवादनतः दशवादनपर्यन्तं वर्गः भवति चेत्
भगिनि तत् न कुर्मः भगिनि, यतोहि तत् प्रारम्भे दशे तु अस्माकं तु षड्वादने एव आसीत. मम तु नो चेत् सार्धषड्वादने करोतु महोदय, तदपि अहं वदामि किल. तत् न वदति किल, अहं तत् न वद तत् न वदामि, अधुना तु वदामि यत् पूर्वं भवति
तदेव भगिनि. तत्र किम् अस्ति इत्युक्ते तत्र जनानां तत्र समयः अस्मिन् वर्षे समयः भिन्नः भवति, कार्याणि भिन्नानि भवन्ति इति कृत्वा तत्र अतः तत्र अहं तत्र अहं पृष्टवान्. किन्तु तत्र तदनन्तरं गूगल् फार्म् तत्र प्रेषितवान्. तदनन्तरं तत्र वयं किं कृतवन्तः, तत्र आधिक्येन कोऽपि समयः न स्वीकृतः इति कृत्वा तत्र अस्तु तत्र अष्टवादनं तत्र नाम सार्धपञ्चवादनमपि मास्तु, षड्वादनमपि मास्तु, तत् मध्ये समयः स्वीकृतवन्तः, सः एव समयः भवतु वा?
न महोदय, महोदय पञ्चादशनिमिषाः किम् अभवत्? यु एस् मध्ये सायङ्काले पञ्चादशनिमिषाः किम् अभवत् महोदय? प्रातःकाले तु भवति एव, सायङ्काले पञ्चदशनिमिषाः किमपि न भवति महोदय. परन्तु भवान् यदि सत्यम् उक्तवान्, यदि सार्धपञ्चवादने भवान् प्रारम्भं कृत्वा कर्तुं शक्यते तर्हि यु एस् समयः करोतु महोदय, मम तु क्लेशः नास्ति. सार्धपञ्चवादने सर्वे आगच्छन्ति
महोदय.
वदतु भगिनि.
मम मतम् अधुना एव ददामि. मम कृते कोऽपि व्यत्यासः न भवति महोदय, किमपि सम्यक्
अस्तु
अस्तु
महोदय. मम प्रश्नः समयस्य नास्ति, दिनस्य एव. बुधवासरे अन्य एकः वर्गः अपि अस्ति,
अस्तु भगिनि,
तदपि जायिन्
कर्तुम् इच्छामि. अस्तु भगिनि, अस्तु,
अस्मिन् समये एव भविष्यति.
अस्तु भगिनि. हा तत्र प्रायशः तत्र वर्गस्य दिनस्य परिवर्तनं कष्टकरम् इति मन्ये भगिनि.
अन्ये वर्गाः सन्ति अत्रापि.
अतः तत्र हा ये छात्राः अस्मिन् वर्गे सन्ति तेषां तु तत्र अनेकाः वर्गाः तत्र ते गच्छन्ति इति कृत्वा तत्र समयस्य दिनस्य परिवर्तनं कष्टकरं. किन्तु भवती तु तत्र सोमवासर वर्गे अपि आगच्छति खलु भगिनि, अतः
सोमवासरे आगच्छामि.
हा तत् समीचीनमस्ति खलु भवत्याः कृते.
अस्तु
तत् अतः तत्र हा अत्र परिवर्तनं किञ्चित् कष्टकरम् अस्ति भगिनि, क्षम्यताम्.
अस्तु
महोदय, मम कृते सार्धपञ्चवादनं सम्यक् अस्ति महोदय.
अस्तु अस्तु भगिनि.
महोदय अहं नूतना छात्रा, परन्तु कोऽपि समयः मम कृते सम्यक् एव.
सम्यक् एव, अस्तु भगिनि, धन्यवादः. अस्तु मधु महोदय.
मम कृते अपि सम्यक् महोदय, कोऽपि समयः अस्ति चेत्
सौम्य अस्ति. अस्तु समीचीनं भगिनि. अस्तु
दिनं न अद्य दिनं न
अस्तु 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 दिनं दिनस्य परिवर्तनं न कर्तुम् इष्टवान्. नरेश महोदय.
मम कृते तु सम्यक् अस्ति, दिनपरिवर्तनं न इच्छामि, परन्तु समयः सम्यक् अस्ति. अष्टवादने, सार्धाष्टवादने, नववादने किमपि.
अस्तु अस्तु महोदय, धन्यवादः महोदय. अस्तु मधु महोदय.
महोदय अहमपि सम्यक् परिवर्तनं अस्ति चेत् सम्यक् एव, ग्रीष्मकाले किञ्चित् विलम्बः अस्ति चेत् सम्यक् अस्ति इति चिन्तयामि.
महोदय सार्धसप्तवादने भवान् अस्ति चेत् कोऽपि प्रश्नः भवति.
यदि सार्धसप्तवादने अहं वर्गं चालयामि तत्र वांशी सुधा भगिनी तत्र किं करोति, विमानम् उपयुज्य अत्र एव
आगच्छति.
महोदय एकः विषयः, अन्येषां पक्षाणां विषये एतादृशचिन्तनं कुत्रापि न भवति महोदय. तत्र तु यत् पूर्वस्मिन् कक्षायाः समयः अस्ति तदेव अभवत्, तत्र चर्चा एव न भवति.
भगिनि किन्तु एकं तु चिन्तयतु, तत्र एतत् तत्र
भवानेव निश्चयं करोतु.
आम् आं तदेव करोतु महोदय. सर्वेषां मतं श्रुतम् इदानीं तु सर्वे, अतः
अस्तु. किन्तु एकं तु वदामि, तत्र समयस्य परिवर्तनं सर्वदा न भवेत्.
महोदय क्षम्यतां महोदय,
धन्यवादः महोदय.
नमस्कारः. अस्तु एकनिमिष तत्र रेकार्डिङ्ग् किमर्थम्